एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सार्वजनिक सेवा प्रसारण नेपालस्य ह्य एकम समारोहम समायोज्य शुभारम्भः विहितोऽस्ति। सार्वजनिक सेवा प्रसारण नेपालस्य नेपाल टेलिभिजनस्य प्रसारण कक्षे पूर्वारम्भ समारोहम उद्घाटयन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ, सार्वजनिक सेवा प्रसारण संस्थया अनया सर्वेषाम् वर्गजाति भाषा क्षेत्राणाम् विविधतायाः समावेशितायाः समानतायाश्च द्योतकेन आदर्शेन भाव्यमिति अवोचत्। मन्त्री गुरूङ अन्य संचार माध्यमानाम् इव आयोजनस्य संस्थया अपेक्षयापि अनया संस्थया सेवां प्रदाय समाजं जनतां देशं च प्रति केन्द्रितया भाव्यमिति बलं प्रादात्। एतदवसरे संचार मन्त्री गुरूङ अस्यां संस्थायां सर्वकारस्य कथंविदोऽपि हस्तक्षेपो न भवतीति प्रतिबद्धतां व्यक्तवान्। समारोहे राष्ट्रिय योजना योगस्य उपाध्यक्ष डाक्टर शिवराज अधिकारी सार्वजनिक सेवा प्रसारणेन सूचना विश्वसनीया विधीयते इति विश्वसितवान्। संचार सूचना प्रविधि सचिव राधिका अर्याल सार्वजनिक सेवा प्रसारण संस्थाया अधिनियमस्य व्यवस्थाया अनुसारेण शीघ्रमेव श्रोतृ दर्शक परिषद संघटयिष्यते इति असूचयत्। कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकारी अध्यक्ष डाक्टर महेन्द्र विष्टः नेपालस्य प्रसारणस्य इतिहासे महत्वपूर्ण भूमिकाम् उडवन्तौ रेडियो नेपालः नेपाल टेलिभिजन संस्था च नूतन स्वरूपे रूपान्तरणं भूत्वा क्रियान्वयनस्य चरणे अग्रे वर्धिते स्तः इति अवोचत्। सार्वजनिक सेवा प्रसारणेन कार्यक्रमाणां समाचाराणां च माध्यमेन समृद्ध देशस्य निर्माणे लोकतन्त्रस्य सबलीकरणे च योगदान प्रदानाय विभिन्नानां राजनीतिक दलानां नेतृभिः बलं दत्तमस्ति। सार्वजनिक सेवा प्रसारणस्य पूर्वारम्भ कार्यक्रमस्य अवसरे ह्य आयोजिते विषयगत विमर्शने सहभागिनां विभिन्नानां राजनीतिक दलानां नेतृभिः समाजस्य सर्वान् वर्गान् समुदायांश्च राष्ट्र निर्माणस्य मूल प्रवाहे प्रवर्तयितुं सार्वजनिक प्रसारण संस्थया भूमिका निर्वोढव्या इत्युक्तम्। विमर्शने नेकपा एमाले दलस्य प्रमुख सचेतक पदीयो महेश बर्तौला सार्वजनिक सेवा प्रसारणेन सुदूरस्थितानां नागरिकाणां विषयान् केन्द्रे स्थापयित्वा कार्यक्रमाणां समाचाराणां च प्रसारणाय बलं प्रादात्। एवमेव नेपाली कांग्रेस दलस्य नेत्री कमला पन्त रेडियो नेपालेन नेपाल टेलिभिजनेन च सार्वजनिक सेवा प्रसारणस्य रूपेण रूपान्तरणानन्तरं नागरिकाणां सूचनाधिकाराणां प्रत्याभवनत्वेन समृद्धेः सुशासनस्य च भूमिका निर्वोढव्या इति परामृष्टवती। एवमेव माओवादी केन्द्रस्य देवेन्द्र पौडेलः सार्वजनिक सेवा प्रसारणेन परिवेशस्य अनुसारेण जनानाम् आवश्यकतायाः पूर्तये स्वकीया भूमिका परिवर्तनीया इति अवोचत्। राष्ट्रिय स्वतन्त्र दलस्य प्रमुख सचेतक पदीयः सन्तोष परियार जनता समाजवादी दलस्य सांसद रञ्जु कुमारी झा च जनतायाः पक्षे सार्वजनिक प्रसारण संस्थया प्रभावकारिणी भूमिका निर्वोढव्येति धारणां व्यक्तवन्तौ। अद्य सप्तविंश राष्ट्रिय भूकम्प दिवसः भूकम्प सुरक्षा सम्बद्धान् विविधान् सञ्चेतनामूलकान् कार्यक्रमान् विधाय आयोज्यमानो वर्तते। नवत्यधिकैक शततम विक्रम वर्षस्य माघमासस्य द्वितीये दिवसे दुरापन्नस्य महाभूकम्पस्य स्मृतौ तथा विदेभ्य भूकम्पेभ्य सुरक्षार्थं दिवसोऽयं समायोज्यमानो वर्तते। ह्य दशम राष्ट्रिय योग दिवस आराष्टम विभिन्नान् कार्यक्रमान् आयोज्य समायोजितोऽस्ति। राष्ट्रिय योग दिवसस्य अवसरे शिक्षा विज्ञान प्रविधि मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री केपी शर्मा ओली पूर्वजैः विहिते अन्वेषणे अध्ययनस्य मार्गे च सर्वैः प्रेरणां गृहीत्वा अग्रे वर्धनीयमिति प्रावोचत्। प्रधानमन्त्री ओली पूर्वजान प्रकृतिं च प्रति गौरवम् अनुभूय ज्ञानोत्पादकानाम् अन्वेषणाध्ययनानुसन्धानानां मार्गे प्रवर्तनाय प्रयासस्य आवश्यकतां न्यश्चिनोत्। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई शिक्षया सह योगं संयोज्य समाजं समृद्धं विधातुं मन्त्रालयः प्रतिबद्धोऽस्तीति अगदत्। मन्त्री भट्टराई योगं अध्ययन कक्षाभिः विद्यार्थिभिश्च सह संयोजयितुं मन्त्रालयः प्रयासरतोऽस्तीति अज्ञापयत। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल योगम विद्यालय पाठ्यक्रमे समावेशयितुम् आत्मना मन्त्रालयस्य माध्यमेन सर्वविध सहयोग करिष्यते इति प्रतिबद्धतां व्यक्तवान्। राष्ट्रपतिः रामचन्द्र पौडेलः देशे विद्यमानानां समस्यानां समाधानं विधाय एकीभूय अग्रेवर्धनाय सर्वान् अनुरुणद्धि। मकर संक्रान्त्याः अवसरे ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजितं जलपान समारोहं सम्बोधयन् राष्ट्रपतिः पौडेलः सुशासनं विकासः शान्तिश्च नेपालीनाम् अभीष्टमस्ति इति अवोचत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड सिन्धुपाल्चोक जनपदस्य तातोपानी सीमा प्रवेश बिन्दुम् प्राक्तनावस्थायाम् सञ्चालयितुम् आत्मना प्रयासो विधीयमानोऽस्तीति गदति। सिन्धुपाल्चोक जनपदे ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड सीमा प्रवेश बिन्दोः सहजतया सञ्चालनाय द्वयोः देशयोः सर्वकारीय स्तरे प्रयत्नम् आवश्यकम् अस्तीति अवोचत। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी कृषकाणां समस्यां समाधातुम् आत्मना कार्यं विधीयमानम् अस्तीति कथयति। बागलुङ नगरपालिकायां ह्य आयोजिते कार्यक्रमे मन्त्री अधिकारी अगदत् यथार्थ कृषकान् परिचित्य तेभ्यैव अनुदानं प्रदातव्यम्। देशं कृषौ आत्मनिर्भरं विधातुम् आत्मना प्रयासो विधीयमानोऽस्तीति चर्चयन् मन्त्री अधिकारी उत्पादनस्य आधारेण कृषकेभ्य अनुदानं प्रदास्यते इति प्रावोचत। बाँके जनपदे बसयानस्य मोटरसाइकल यानस्य च संघटनेन दौजनौ मृतौस्त। राप्ती सोनारी ग्रामपालिकायाः सप्तम वडा क्षेत्रस्य फतेपुर सर्रास्थाने ह्य नेपालगंजम प्रति प्रस्थीयमानस्य बसयानस्य प्रहारात् मोटरसाइकल याने आरूढौ राप्ती सोनारी ग्रामपालिकायाः सप्तम वडा क्षेत्रस्य सप्तविंशति वर्षीय दिलबहादुर थारू त्रयोविंशति वर्षीय राजेश थारू च मृतौ इति भगवानपुर प्रहरी कार्यालयस्य निमित्त प्रमुख प्रहरी नायब निरीक्षक भद्रसिंह वली असूचयत। चितवन जनपदस्य माडी स्थाने गण्डकस्य आक्रमणेन एको जना मृतोऽस्ति। मृतक माडी नगरपालिकाया तृतीय वडा क्षेत्रस्य 65 वर्षीय छविलाल बोट वर्तते इति जनपद प्रहरी कार्यालयस्य प्रमुख गौतम मिश्र अज्ञापयत। कानने महिषीं चारयितुं गतस्य तस्य गण्डकस्य आक्रमणेन घटनास्थले एव मृत्यु सम्भूतोऽस्तीति प्रहरिणा ज्ञापितं वर्तते। सुर्खेत जनपदस्य वीरेन्द्रनगरस्य बुलबुले वर्तिनी व्यञ्जनापणे प्रवेशिते हरित व्यञ्जने विषजातस्य मात्रा अधिकमात्रायां प्राप्ता अस्ति इति समाचारः।